इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः आदौ मुख्यवार्ताः प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् तस्य सर्वकारस्य विकासस्य प्रतिदर्शम् अस्ति तुष्टीकरणरहितं राष्ट्रं प्रथमम् इति डॉक्टर एस जयशंकरः द्वयोः सदनयोः अकथयत् यत् अवैधरूपेण निवासं कुर्वतां स्वकीयानां नागरिकाणां प्रत्यावर्तनं प्रत्येकं राष्ट्राय अनिवार्यमस्ति अष्टसहस्रतः अधिकाः आदिवासी युवानः युवाकुम्भे भागं भजन्ति अपि च उत्तराखण्डे राष्ट्रिय क्रीडासु भारतीय सेनायाः नीरजकुमारः 50 मीटर परिमितायां राइफल 3 प्रोजिशन इति पुरुषाणां स्पर्धायां स्वर्णपदकं विजितवान् अथ वार्ताः विस्तरेण प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रोक्तवान् यत् तस्य सर्वकारस्य विकासस्य प्रतिदर्शम् अस्ति राष्ट्रं प्रथमम् इति यत् तुष्टीकरणरहितं भूत्वा सन्तुष्टो केन्द्रितम् अस्ति सः प्रोक्तवान् यत् जनैः एतस्य प्रतिदर्शस्य परीक्षणं समर्थनं चाकुर्वन् तथैव तृतीयवारम् अपि जनादेशः तैः प्रदत्तम् अस्ति
देश की जनता ने हमारे विकास के मॉडल को परखा है समझा है और समर्थन दिया है हमारा ये विकास का मॉडल को अगर मुझे एक शब्द में कहना है तो मैं ये कहूंगा नेशन फर्स्ट इसी एक उम्दा भावना और समर्पित भाव से हमने लगातार अपनी नीतियों में अपने कार्यक्रमों में हमारे वाणी में वर्तन में इसी एक बात को मानदंड मान करके देश की सेवा करने का प्रयास किया है
प्रधानमन्त्रिणा संसदः द्वयोः सदनयोः संयुक्तोपवेशने राष्ट्रपतिनः द्रौपदी मुर्मुवर्यायाः अभिभाषणे धन्यवाद प्रस्तावम् अधिकृत्य राज्यसभायाम् उत्तरं प्रयच्छता इदं वक्तव्यं प्रदत्तमासीत् कांग्रेसदलं विरुध्य कथयन् प्रधानमन्त्री प्रोक्तवान् यत् सबका साथ सबका विकास इति प्रतिदर्शं कांग्रेसदलाय दुष्करम् अस्ति यतः हि सम्पूर्णं कांग्रेसदलम् एकस्मै एव परिवाराय समर्पितम् अस्ति सः प्रोक्तवान् यत् तस्य सर्वकारः कौशलविकासाय वित्तीय समावेशनाय औद्योगिकीकरणम् इत्यस्मै च प्राथमिकतां प्रायच्छत् विदेशमन्त्री डॉक्टर एस जयशंकरः अद्य प्रोक्तवान् यत् अवैध प्रवासिनां निर्वासन प्रक्रिया अन्ताराष्ट्रिय सम्बन्धेषु सामान्यतया एकः स्वीकृतः सिद्धान्तः अस्ति डॉक्टर एस जयशंकरः अमेरिकायाः भारतीय नागरिकाणां निर्वासन प्रकरणम् अधिकृत्य राज्यसभायाम् एकं वक्तव्यं प्रयच्छन् प्रोक्तवान् यत् अवैधरूपेण निवासं कुर्वतां स्वकीयानां नागरिकाणां प्रत्यावर्तनं प्रत्येकं राष्ट्राय अनिवार्यमस्ति
The government carefully monitors the number of students in all foreign countries. We also carefully monitor their welfare. Wherever there is a situation of any tension or likelihood of violence, we alert students as we had done in Ukraine. Where there is a requirement for us to take any further steps like running a flight to for their rescue or any other situation like that, we are prepared. We always have contingency plans for that.
सः प्रोक्तवान् यत् निर्वासन प्रक्रिया नवीना नास्ति एषा निरन्तरं प्रवर्तमाना प्रक्रिया वर्तते यस्याः अन्तर्गतं सैन्य नागरिक विमानानाम् उपयोगः क्रियते सः सदनमध्ये अन्यैः देशैः निर्वासितानां भारतीय नागरिकाणां संख्याम् अपि प्रख्यापितवान् प्रोक्तवान् यत् नवोत्तर द्विसहस्रतमाब्दे 34 जनाः भारते निर्वासिताः सञ्जाताः चतुर्विंशत्युत्तर द्विसहस्रतमाब्दे 68-3001,000 अस्मिन् वर्षे च 4,100 निर्वासिताः सञ्जाताः सः प्रोक्तवान् यत् भारत सर्वकारः अमेरिकायाः अधिकारिभिः सह सम्पर्कं विधाय सुनिश्चितं करोति यत् निर्वासितैः सह कथमपि दुर्व्यवहारः न स्यात् संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति सम्प्रति महाकुम्भवार्ताः
केन्द्रीय राज्य मन्त्रिणा श्रीपद नाइक इत्यनेन अद्य महाकुम्भे पवित्रावगाहनं कृतम्। अस्मिन् अवसरे महाकुम्भस्य मेलकम् ऐतिहासिकम् इति उक्तवान्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य च नेतृत्वे महाकुम्भस्यास्य एषः कार्यक्रमः स्वतः एव उदाहरणम् इति उक्तवान्। संगमे कोटिशः भक्ताः श्रद्धया स्नानं कुर्वन्ति, तेभ्यः उच्चस्तरीयाः सुविधाः प्रदत्ताः सन्ति। अस्य सुव्यवस्थितस्य आयोजनस्य कृते सः मोदी योगी प्रशासनाय धन्यवादं दत्तवान्। केन्द्रीय मन्त्री उक्तवान् यत् एतत् आयोजनं भारतीय संस्कृतेः सनातन परम्परायाः च दिव्यतां प्रतिबिम्बयति। सः अवदत् यत् अस्मिन् आयोजने अनेकानि समाह्वानानि आसन्, परञ्च उत्तरप्रदेश सर्वकारेण तत् पूर्णतया सफलं कृतम्। मणिपुरस्य मुख्यमन्त्री अपि एन् वीरेन सिंह महाकुम्भे भागग्रहणाय प्रयागराजं सम्प्राप्तवान्। सामाजिक संजालीय पटले उक्तवान् यत् आयोजनमिदं दिव्यम्, ऐतिहासिकम्, आध्यात्मिकम् अवसरं च अस्ति इति तेन वर्णितम्। संस्कृत वार्ता कक्षतः पुनीत त्रिपाठी।
कांग्रेस समाजवादी पार्टीति द्वयोः विपक्षिदलयोः सांसदाः एतदेव प्रकरणम् अधिकृत्य संसदः बहिः विरोधप्रदर्शनं कृतवन्तः। कांग्रेस सांसदः शशिथरूरः प्रोक्तवान् यत् अमेरिकया कृतायाः भारतीय नागरिकाणां निर्वासनप्रक्रियायाः दलैः विरोधं कृतमस्ति। सः प्रोक्तवान् यत् अमेरिकायाः पार्श्वे अवैध नागरिकाणां निर्वासनस्य वैधानिकाधिकारः अस्ति, परञ्च अमेरिकया विहिता एतादृशा निर्वासनप्रक्रिया स्वीकार्या न अस्ति। विदेशमन्त्री डॉ एस जयशंकर अद्य अवदत् यत् देशात् बहि अध्ययनं कुर्वतां भारतीय छात्राणां सुरक्षा कल्याणञ्च सर्वकारस्य सर्वप्रथमं कर्तव्यम् अस्ति। राज्यसभायां पूरक प्रश्नानां प्रत्युत्तरं प्रयच्छन् सः अवदत् यत् युद्धग्रस्त क्षेत्रात् प्रत्यागतानां भारतीय छात्राणां हिताय रक्षणाय च सर्वकारः अनेकान् उपायान् अकरोत्। सः अवदत् सर्वकारः तान् छात्रान् प्रति संवेदनशीलः वर्तते ये युद्धग्रस्तात् क्षेत्रात् भारतं समागताः सन्ति। सर्वकारः संघर्षक्षेत्रात् शतशः छात्रान् पुनः आनयन् इति उक्त्वा जयशंकरः अवदत् यत् सर्वकारः यूक्रेनस्य वैद्यकीय शिक्षायाः विद्यार्थिभ्यः स्वस्य शैक्षणिक कार्यक्रमान् तृतीयदेशं प्रति स्थानान्तरं कर्तुं भारते च व्यवहारिक परीक्षाया अनुमतिं दत्तवान्। जनजातीय युवा कुम्भस्य आयोजनं जनजातीय सांस्कृतिक समागम इत्यस्य अन्तर्गतं महाकुम्भे प्रयागराजे क्रियते। आदेशं 8,000 अधिकाः आदिवासी युवानः युवाकुम्भे भागं भजन्ति। अवधेयं यत् बिरसा मुण्डा इत्यस्य 85th जयन्त्याः उपलक्ष्ये इदं वर्षं जनजातीय गौरव वर्षस्य रूपेण घोषितं कृतमस्ति। अस्योत्सवस्य भागरूपेण महाकुम्भे पञ्चदिवसीयः जनजाति सांस्कृतिक समागमः इत्यस्य आयोजनमपि कृतमस्ति। परीक्षा पे चर्चा इत्यस्य 8th संस्करणं प्रधानमन्त्रिणा नरेन्द्रमोदिना छात्रैः सह वार्षिक संवाद कार्यक्रमे नूतन रूपेण प्रस्तोष्यते। इदानीम् अयं कार्यक्रमः 8 प्रकरणेषु भविष्यति। अस्य मासस्य 10 दिनांके नवदिल्ल्याः भारतमण्डपे अस्य आयोजनं भविष्यति। शिक्षामन्त्रालयः अकथयत् यत् नवीनस्वरूपस्य अन्तर्गतं विविधक्षेत्राणां प्रसिद्धाः व्यक्तिविशेषाः छात्रैः सह संवादं करिष्यन्ति, स्वानुभावान् ज्ञानञ्च उपस्थास्यन्ति। अस्मिन् कार्यक्रमे प्रत्येकराज्यस्य केन्द्रशासितप्रदेशस्य च 36 छात्राः विविधविद्यालयेभ्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह साक्षात् संवादं कर्तुं चिताः सन्ति इति मन्त्रालयेन संसूचितम्। अपि च प्रथमखण्डे प्रधानमन्त्री छात्रैः सह संवादं करिष्यति इति अपि सः अवदत्। दूरदर्शनं स्वयं प्रभा चेत्यादिभिः सह प्रधानमन्त्री कार्यालयस्य यूट्यूब वाहिन्यां शिक्षा सूचना प्रसारण मन्त्रालयानां सामाजिक सन्देश वाहिन्यां च कार्यक्रमस्य प्रत्यक्षं प्रसारणं भविष्यति। उत्तराखण्डे प्रवर्तमानासु 38th राष्ट्रिय क्रीडासु भारतीय सेनायाः नीरजकुमारः 50m परिमितायां राइफल 3 पोजिशन इति पुरुषाणां स्पर्धायां स्वर्णपदकं विजितवान् इति वार्ताः।